इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झाः। आदौ मुख्य वार्ताः। प्रधानमन्त्री प्रावोचत् यत् क्वाड समूहः हिन्द प्रशान्त क्षेत्रे शान्त्ये प्रगत्ये समृद्धे च कार्यं कर्तुं समान वैचारिक दृष्टियुतानां देशानां प्रमुख समूहत्वेन समक्षम् आगतः अस्ति। प्रधानमन्त्री क्वाड नेतृणां षष्ठे वार्षिक शिखर सम्मेलने सहभागं कर्तुं तत्र अद्य अर्धरात्रेः अनन्तरं प्राप्नोति। आम आदमी पार्टीति दलस्य वरिष्ठ नेत्री आतिशी अद्य दिल्ल्याः मुख्यमन्त्रित्वेन शपथम् अग्रहीत्। जम्मू कश्मीरे विधानसभा निर्वाचनानां कृते प्रचाराभियानं चरमं स्पृशति। श्रीलंकायाम् आर्थिक मन्दतायाः अनन्तरं प्रथमतया राष्ट्रपति निर्वाचनं सुष्ठुतया भवति। भारतस्य ऋतु विभागेन IMD इत्यनेन आगामि दिवसेषु देशस्य अनेक भागेषु प्रचण्ड वृष्टेः अनुमानः कृतः अस्ति। अपि च चेन्नई नगरे भारत बांग्लादेशयोः मध्ये अनुवर्तमानायाः प्रथम क्रिकेट निकष स्पर्धायाः तृतीये दिने अतिथिदलेन चतुर्णां क्रीडकानां हानिपूर्वकम् 58.5 धावनांकाः अर्जिताः। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी अमेरिकायाः डेलावेरे विल्मिंगटन नगरे क्वाड नेतृणां षष्ठे वार्षिक शिखर सम्मेलने सहभागं कर्तुम् अद्य तत्र सम्प्राप्नोति। भारतीय समयानुसारि एतत् सम्मेलनम् अर्धरात्रेः अनन्तरं प्रारप्स्यते। आशा अस्ति यत् देशचतुष्टयस्य सदस्याः ऋतुदशा परिवर्तनं महत्वपूर्णाः अभिनवाः प्राविधिक्यः इत्यादीन् विषयान् अभिलक्ष्य विचारणां करिष्यन्ति। शिखर सम्मेलनात् प्राक् प्रधानमन्त्री अमेरिका राष्ट्रपतिं जो बाइडेनं मेलिष्यति। श्रीमोदी ऑस्ट्रेलिया देशस्य प्रधानमन्त्रिणा एन्थनी अल्बेनिजेन जापान प्रधानमन्त्रिणा फुमियो किशिदा इत्यनेन च सह उभय पाक्षिकोपवेशनं आकारयिष्यति। अद्य प्रातः अमेरिकायै प्रस्थानात् प्राक् प्रधानमन्त्री प्रावोचत् यत् क्वाड समूहः हिन्द प्रशान्त क्षेत्रे शान्त्यै प्रगत्यै समृद्ध्यै च कार्यं कर्तुं समान वैचारिक दृष्टियुतानां देशानां प्रमुख समूहत्वेन समक्षम् आगतः अस्ति। अपि च असौ सम्मेलने स्वसहयोगिभिः सह सहभागं कर्तुं समुत्सुकः वर्तते। सः विश्वासं प्राकटयत् यत् राष्ट्रपतिना बाइडेनेन सह उपवेशनानन्तरं अमेरिका भारतदेशाभ्यां व्यापक वैश्विक रणनैतिक सहभागितां भूयः अपि दृढयितुम् अवसरः प्राप्स्यते। श्रीमोदी अमेरिकास्थानां प्रमुख समवायानां शीर्षाधिकारिभिः सह अपि परिचर्चां करिष्यति। यात्रायाः अन्तिमे दिने प्रधानमन्त्री संयुक्त राष्ट्र महासभायां भविष्यते शिखर सम्मेलनम् इत्यभिधानकम् उपवेशनं सम्बोधयिष्यति। अस्य विशिष्ट शिखर सम्मेलनस्य विषयः अस्ति भद्रतर भविष्यते बहुपाक्षिकं समाधानम् इति। शिखर सम्मेलनात् पूर्वं प्रधानमन्त्री भारतीय समुदायं सम्बोधयिष्यति। विशिष्य छात्रेषु तस्य भाषणम् अभिलक्ष्य सुमहान् उत्साहः वर्तते। आम आदमी पार्टीति दलस्य वरिष्ठ नेत्री आतिशी अद्य दिल्ल्याः मुख्यमन्त्रित्वेन शपथम् अग्रहीत्। राजनिवासे आयोजिते शपथ ग्रहण समारोहे उपराज्यपालेन विनय कुमार सक्सेना इत्यनेन आतिशी तस्याः मन्त्रिपरिषदः सदस्याः च पदगोपनीयतायै प्रतिज्ञापिताः। राष्ट्रपतिना द्रौपदी मुर्मू इत्यनया शपथग्रहण दिवसात् एव आतिशी दिल्ल्याः मुख्यमन्त्रिरूपेण नियोजिता। राष्ट्रपति पदासीना द्रौपदी मुर्मू अद्य नवदिल्ल्यां राष्ट्रपति भवने छत्तीसगढस्य बस्तर संभागस्य माओवादी हिंस्र घटना पीडितैः सह मेलितवती। एकस्मिन् सामाजिक संजालीय सन्देशे राष्ट्रपतिः उक्तवती यत् स्वीय उद्देश्यानां पूर्तये हिंसाचरणस्य मार्गे न गन्तव्यम्, यः हि समाजस्य कृते हानिप्रदः एव। राष्ट्रपतिः मुर्मुः वामदलीयानाम् अतिवादिनाम् आग्रहं कृतवती यत् हिंसायाः निराकरणं कुर्वन्तु, तेषां समस्यानां समाधानाय सर्वकारः सर्वात्मना प्रयतिष्यते। भारतीय जनता पार्टीति दलस्य वरिष्ठः नेता केन्द्रीय गृहमन्त्री अमित शाहः उक्तवान् यत् जम्मू कश्मीरे प्रधानमन्त्रिणः नरेन्द्र मोदिनः नेतृत्वे आतंकवादात् मुक्तिं प्रति अभूतपूर्व परिवर्तनम् अभवत्। पूंछ मण्डलस्य मेंढरे एकां जनसभां सम्बोधयन् श्री शाहः उक्तवान् यत् जम्मू कश्मीरस्य यूनां हस्तेषु सम्प्रति पाषाणखण्डस्य स्थाने लैपटॉप इति अंकीय संगणकम् अस्ति।
आज नरेंद्र मोदी जी की भाजपा सरकार ने दहशतगर्दी पर समाप्ति करने का काम किया है और युवाओं के हाथ में पत्थर की जगह लैपटॉप देने का काम भारतीय जनता पार्टी। हमारी एक खूबसूरत वादियों में दहशतगर्दी को हम नहीं घुसने देंगे।
श्री शाह आरोपितवान् यत् जम्मू कश्मीरस्य लोकतन्त्रं त्रिभिः प्रभावशाली परिवारैः गृहीतम् आसीत्। चतुर्दशोत्तर द्विसहस्रतमे वर्षे श्रीमोदिनः शासनस्य प्राप्तेः अनन्तरम् एव भूम्यस्तरे मार्ग प्रशस्तम् अभवत्, येन पञ्चायत्ते संभागे मण्डलस्तरेषु च निर्वाचनानि सुनिश्चितानि। श्री शाह प्रतिपादितवान् यत् राष्ट्रिय जनतांत्रिक संघटनस्य अथक प्रयासैः अद्य सहस्रशः कश्मीरीय युवानः स्वीय लोकतान्त्रिकाधिकाराणां प्रयोगं कुर्वन्तः विभिन्नस्तरीये निर्वाचने भागं भजन्ति। भारतस्य निर्वाचनायोगेन उक्तं यत् जम्मू कश्मीरे बुधवासरे आयोजिते प्रथमचरणस्य विधानसभा निर्वाचने 61.38% मतदानं जातम्। आयोगेन उक्तं यत् जम्मू कश्मीरे विगतेष् 35 वर्षेष् एतत् सर्वाधिकं मतदान प्रतिशतम् अस्ति। भारत ब्राजीलाभ्याम् ऊर्जा क्षेत्रे अनुवर्तमान सहयोगस्य द्विपक्षीये व्यापारे पारस्परिक रूपेण लाभकारी सम्बन्धानां सुस्थिरेष् ईंधनेष् विशिष्य जैवेन्धने सहभागितायाः च समीक्षा कृता। शिलातेल प्राकृतिक वाति मन्त्रिणः हरदीप सिंह पुरिणः, ब्राजीलस्य खन्यूर्जा मन्त्रिणः अलेक्जेंडर सिल्वेरा इत्यस्य च उपवेशनानन्तरं प्रसारिते संयुक्त वक्तव्ये एवम् उदीरितम्। श्रीलंकायाम् आर्थिक मन्दतायाः अनन्तरम् इदं प्रथमतया राष्ट्रपति निर्वाचनं सुष्ठुतया जायते। 70,00,000+ मतदातृणां द्वीपे अधुनावधि मतदानानि शान्तिपूर्णरीत्या जातानि। अस्माकं वार्ताहरः असूचयत् यत् द्वाविंशतिषु नैर्वाचनिकेषु जनपदेषु 400,00,000+ मतदानकेन्द्रेषु मतदानं प्रातः 7 आरब्धम्। भारतस्य ऋतुविभागेन आईएमडी इत्यनेन आगामिषु दिनेषु देशस्य अनेकेषु भागेषु प्रचण्ड वृष्टिः भविष्यति इति पूर्वानुमानः कृतः। श्वः आरभ्य मंगलवासर पर्यन्तं ओडिशायां, गुरुवासर पर्यन्तं नागालैण्डे, मणिपुरे, मिजोरमे, त्रिपुरायां च अतिवृष्टिः भविष्यति इति अनुमीयते। अरुणाचलप्रदेशे, असमे, मेघालये च सोमवासरात् गुरुवासर पर्यन्तं प्रचण्ड वृष्टिः भवितुं शक्नोति। अस्मिन्नेव समये छत्तीसगढे अपि प्रचण्ड वृष्टेः सम्भावना विद्यते। विदर्भ पूर्व मध्य प्रदेशयोः च मंगलवासरात् गुरुवासर पर्यन्तं प्रचण्ड वृष्टिः भवितुं शक्नोति। चेन्नई नगरे एमए चिदम्बरम क्रीडांगणे भारत बांग्लादेशयोः मध्ये अनुवर्तमानायाः प्रथम क्रिकेट निकष स्पर्धायाः तृतीये दिने अतिथिदलेन चतुर्णां क्रीडकानां हानिपूर्वकं 58.00% धावनांकाः अर्जिताः। इतः पूर्वं भारतं चतुर्णां क्रीडकानां हानिपूर्वकं 87.2% धावनांकान् अर्जित्वा द्वितीय पाल्ये घोषणाम् अकरोत्। आम आदमी पार्टीति दलस्य वरिष्ठ नेत्री आतिशी अद्य दिल्ल्याः मुख्यमन्त्रित्वेन शपथम् अग्रहीत्। उपराज्यपालेन सा पदगोपनीयतायै प्रतिज्ञापिता इति वार्ताः।